भगवते वासुदेवाय धर्मक्षेत्रे कुरुक्षेत्रे समवेताय उत्सव मामका पांडवाश्चैव किम् अकुर्वत संजय कार्पण्यदोषो पहता स्वभावा पृच्छामि त्वां धर्मसम्मूढचेता यत् श्रेयस्या निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं साधि मां त्वां प्रपन्नम् असोचानन्वशोचस्त्वं प्रज्ञावादाश्च भाषसे गतासु न गतासुंश्च नानुशोचन्ति पण्डिता न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपा न चैव न भविष्याम सर्वे वयमता परम् देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा तथा देहान्तरप्राप्ति धीरस्तत्र न मूह्यते मात्रा स्पर्शास्तु कौन्तेय शीतोष्ण सुखदुःखदा अगमापायिनो नित्या स्थांस्थितिक्ष स्वभारता न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूया अजो नित्यशाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे वासांसि जीर्णा नियता विहाय न वानि गृह्णाति नरो पराणि तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति न वानि देहि नयनं छिन्दन्ति शस्त्राणि नयनं दहति पावका न चैनं क्लेदयन्त्यापो न शोषयति मारुता जातस्य हि ध्रुवो मृत्यु ध्रुवं जन्म अमृतस्य च तस्मादपरिहारे अर्थे न त्वं शोचितुमर्हसि देहि नित्यम् अवध्योऽयं देहि सर्वस्य भारत तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते स्वल्पमप्यस्य धर्मस्य त्रायते महतो भया व्यवसायात्मिका बुद्धि एकेह कुरु नन्दना बहुशाखायनन्ताश्च बुद्धयो व्यवसायिनां भोगेश्वर प्रसक्तानां तया परितचेतसां व्यवसायात्मिका बुद्धि समाधौ न विधीयते त्रैगुण्य विषया वेदा निस्त्रय गुण्यो भवार्जुना निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योग क्षेम आत्मवान् यावानर्थ उदपाने सर्वतः संप्लुतोदके तावान् सर्वे सुवेदेषु ब्रह्मणस्य विजानता विषया विनिवर्तन्ते निराहारस्य देना रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ध्यायतो विषयान् पुंसा संगस्ते सुपजायते संगात् संजायते कामा कामात् क्रोधो विजायते क्रोधाद् भवति सम्मोहा सम्मोहा स्मृतिविभ्रमा स्मृतिभ्रंशात् बुद्धिनाशा बुद्धिनाशात् प्रणश्यति रागद्वेषविमुक्तेस्तु विषयानिन्द्रियेश्चरन् आत्मवस्येर्विधेयात्मा प्रसादम् अधिगच्छति यानि सा सर्वभूतानां तस्यां जागर्ति संयमी यस्यां जाग्रति भूतानि सानि सा पश्यतो मुने